एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली भाषते सर्वकारः समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षा मूढ्वा राष्ट्र निर्माणे क्रियाशीलो वर्तते। नेपाल चेम्बर अफ कमर्स संस्थायाः सप्ततितम वार्षिक साधारण सभाम् इह काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री ओली अवोचत् राष्ट्र निर्माणं सर्वकारेण एकस्य नवीनाभियानस्य रूपेण अग्रे वर्धाप्यमानं वर्तते। प्रधानमन्त्री ओली आत्मनः प्रथमवारं प्रधानमन्त्रिणः पदासीनावस्थायां राष्ट्र निर्माणस्य अग्रे वर्धापितम् सद् अवरोध सृष्ट। द्वितीयवारं प्रधानमन्त्रिपदे आसीनताया अवस्थायामपि कार्यसम्पादनाय बाधा सर्जन प्रवृत्ति बहुनि कार्याणि विधीयमानानि सन्तीति ब्रुवन् परम् आत्मना एतस्मात् अभियानात् कदापि पराङ्मुखेन न भूतम् न च भूयते इति समस्पष्ट। यत् प्रधानमन्त्री ओली उपभोग्य वस्तुनाम् आयातस्य अपेक्षया निवेशनं प्रविधिं च आनीय नेपाले उत्पादन वर्धनात्मकं निर्यातमूलकं च कार्यं विधातुं व्यवसायिनः अनुरुन्धानः अगदत् एतदर्थं सर्वकारः सहयोगी वर्तते। प्रधानमन्त्री ओली कोविड 19 सन्दर्भे जनजीवनं पूर्णतः नावरुद्धव्यम् परं सावधानतायं नावलम्बितायं सत्यं बाध्यतया पूर्णतः अवरोधकारिणी स्थिति सम्भविष्यतीति हेतोः सचेष्टैः सावधानैश्च भाव्यमेवेति अभासत। प्रधानमन्त्री ओली अकथयत् कोरोना संक्रमणं नियन्तुम् अधिकतमः प्रयासः विहितः सन्नपि आलोचना विधीयते। प्रधानमन्त्री ओली कोरोना विषाणो महामार्या नियन्त्रणाय सर्वकार सक्रियो स्थिति व्याहरन् पश्चात्तन समये भारते कोविड संक्रमणस्य अंकमानस्य वर्धनस्य निर्बाध सीमायाः कारणेन नेपालेऽपि संकटस्य वृद्धेश्च हेतोः सचेष्टाः भवितुम् अन्वरुणत। प्रतिनिधि सभायाः ह्यस्तनोपवेशे सभामुखः अग्निप्रसाद सापकोटा अर्घाखाँची जनपदस्य प्रथम निर्वाचन क्षेत्रस्य सांसद टोपबहादुर रायमाझी कैलाली जनपदस्य चतुर्थ निर्वाचन क्षेत्रस्य सांसद लेखराज भट्ट रौतहट जनपदस्य तृतीय निर्वाचन क्षेत्रस्य सांसद प्रभु शाह कैलाली जनपदस्य तृतीय निर्वाचन क्षेत्रस्य सांसद गौरीशंकर चौधरी च पदमुक्ताः सन्तीति अज्ञापयत। माओवादी केन्द्रस्य संसदीय दलस्य नेत्रा पुष्पकमला दाहाल प्रचण्डेन दलं त्यक्त्वा एमाले दलं प्रविष्टान् चतुरः सांसदान् पदमुक्तान् निर्विदातुम् सोमवासरे संसद सचिवालयाय पत्रं प्रेषितम् आसीत्। राजनीतिक दल सम्बद्धस्य अधिनियमस्य अनुसारेण दलं परित्यक्ताः सांसदाः पदमुक्ताः भवन्तीति व्यवस्था वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षता विधिन्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठ मदेशीयायोगस्य थारू आयोगस्य च द्वितीयं वार्षिक प्रतिवेदन द्वयं प्रस्तौत। उपवेशे नेकपा एमाले दलस्य सांसद लालबाबु पण्डितः संसदि प्रस्तुतानां महत्वपूर्णानां पञ्चषष्ठ विधेयकानां सन्धि संविधानाञ्च कार्यम् अग्रे न वर्धितमस्तीत्यत्र सदनस्य ध्यानमाकर्षयत। उपवेशे सांसदाः गगन कुमार थापा देवेन्द्रराज पौडेलः लीलादेवी सिटौला प्रेम सुबालश्च सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपर उपवेश अस्यैव चैत्रस्य त्रिंशे दिवसे पुनर्वस्था। राष्ट्रपति विद्यादेवी भण्डारी दावानलं नियम्य वायु प्रदूषणस्य न्यूनीकरणाय सर्वेषां स्तराणां जनप्रतिनिधीन् विज्ञान प्रकृति प्रेमिणश्च आह्वयति। राष्ट्रपति भण्डारी ट्विटर सामाजिक सञ्जालस्य माध्यमेन ह्य एवम् आह्वयत्। राष्ट्रपति विद्यादेवी भण्डारी समाजवादी गणतन्त्र भियतनाम देशस्य राष्ट्रपतेः कार्यभार वहनं समालक्ष्य न्यूयन सुआन फुक इत्यस्मै वर्धापनं ज्ञापयति। राष्ट्रपतिः भण्डारी ह्य फुक इत्यस्मै सन्देशं सम्प्रेष्य भियतनाम देशस्य राष्ट्रपतौ निर्वाचयनं तं प्रति भियतनाम देशीय जनताया विश्वासस्य प्रमाणमस्तीति निगदितवती। एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना भियतनाम देशस्य प्रधानमन्त्रीपदे ताम मिन चिन इत्यस्य संस्थितिम् आलक्ष्य अमुं हार्दं वर्धापनं ज्ञापयता शुभकामना सन्देशः प्रेषितोस्तीति परराष्ट्र मन्त्रालय ज्ञापयति। सन्देशे प्रधानमन्त्रिणा ओलिना देशद्वयस्य मध्ये विद्यमानौ सांस्कृतिक सामिप्य मैत्रीपूर्ण सम्बन्धौ प्रधानमन्त्रिणा चीन इत्यस्य कार्यकाले इतोपि सुदृढौ भविष्यतः इति विश्वासः व्यक्तोस्ति। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादेवा विदेन पश्चात्तन राजनीतिक विषयं विमृष्टुम् माओवादी केन्द्रं जसपा नाम्नं जनता समाजवादी दलं च आहुते स्तः। सभापतिना देवाभिदेन अद्य अपराह्नस्य त्रिवादने बुढा नीलकण्ठवर्तिनी स्वस्य निवासे माओवादी केन्द्रेण जनता समाजवादी दलेन च सह उपवेशा आउतो स्थिति सभापतेः देवाभिदस्य स्वकीय सचिवः भानुदेवा अज्ञापयत। उपवेशे माओवादी केन्द्रस्य जसपा दलस्य च शीर्षस्थ नेतारोऽपि आहूताः सन्तीति स्वकीय सचिवः देउवा अबोधयत। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अस्य चैत्रस्य त्रिंशे दिवसे वस्ता। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः ह्य विज्ञप्तिम् प्रकाश्य अद्य निर्धारितः उपवेशः चैत्रस्य त्रिंशे दिवसे वस्तेति अज्ञापयत। उपवेशे दलस्य आसन्न महाधिवेशनस्य विषये राष्ट्रस्य सामयिक राजनैतिक विषयेषु च विमृक्ष्यते इति मुख्य सचिवः पौडेलः अबोधयत्। अधिकार दुरूपयोग अनुसन्धान आयोगेन नेपालगंजवर्तिन यातायात व्यवस्था कार्यालयस्य प्रमुखेण परीक्षा समितेः अध्यक्षेण च पवन सुवेदिना सहितानाम् ऊनविंशतेः जनानां विरूद्धे ह्यः विशेष न्यायालये भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। परीक्षा समितेः अध्यक्षेण सुवेदिना द्विचक्रिका यान चालकानुमति पत्र सम्बद्धायां परीक्षायाम् अनुत्तीर्णानां परीक्षार्थिनां परिणामे परिवर्तनस्य कार्यं विहितमिति आयोगेन ज्ञापितं वर्तते। एवमेव अधिकार दुरूपयोग अनुसन्धान आयोगेन महोत्तरी जनपदस्य तात्कालिक्याः सिंग्यादि ग्रामपालिकायाः तात्कालिकयोः सचिवस्य विनोद कुमार सिंहस्य कार्यालय सहायकस्य नारायण यादवस्य च विरुद्धे द्वादश लक्षाणां चतुश्चत्वारिंशत सहस्राणां च रूप्यकाणां भ्रष्टाचरणं विहितमिति आरोपे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। तात्कालिकेन सचिवेन सिंहेन कार्यालय सहायकेन यादवेन च मिलित्वा एकस्याः एव व्यक्तेः नाम्नि द्वैधं सामाजिक सुरक्षा भरणस्य वितरणस्य प्रपत्रं निर्माय द्वादश लक्षाणि चतुश्चत्वारिंशत् सहस्राणि च रूप्यकाणि भ्रष्टाचरि पुष्टिभूतानि सन्तीति हेतो उभयोर्विरुद्धे प्रतिजनं द्वादश लक्षाणां चतुश्चत्वारिंशत् सहस्राणां च रूप्यकाणां हानिवित्तम् अभियाच्य विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितमिति आयोगेन ज्ञापितं वर्तते। नेपाले ह्य अतिरिक्तेषु द्वात्रिंशदधिकशते जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य सप्ततिः जना कोरोना संक्रमणात् मुक्ताः सन्ति इति इदानीम् आराष्टम् सहस्रद्वयम् चतुःशतम् चतुःपञ्चाशत् च सक्रिय संक्रान्ता जनाः सन्ति इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति इति समाचारः।